ಶ್ರೀಲಲಿತಾ ತ್ರಿಶತೀ ಸ್ತೋತ್ರ ರತ್ನನಾಮಾವಳಿ
ಅಶ್ಯ ಶ್ರೀಲಲಿತಾ ತ್ರಿಶತೀ ಸ್ತೋತ್ರ ಮಹಾಮಂತ್ರಸ್ಯ ಭಗವಾನ್ ಹಯಗ್ರೀವರ್ಷಿ ಅನುಷ್ಟುಪ್ ಛಂದಃ ಶ್ರೀಲಲಿತಾ ಮಹಾತ್ರಿಪುರ ಸುಂದರೀ ದೇವತಾ ಐಂ ಬೀಜಂ ಸೌಃ ಶಕ್ತಿಃ ಕ್ಲೀಂ ಕೀಲಕಂ ಮಮ ಧರ್ಮಾರ್ಥ ಕಾಮ ಮೋಕ್ಷ ಚತುರ್ವಿಧ ಫಲ ಪುರುಷಾರ್ಥ ಸಿದ್ಧ್ಯರ್ಥೇ ಇಷ್ಟಕಾಮ್ಯಾರ್ಥ ಸಿದ್ಧ್ಯರ್ಥೇ ಶ್ರೀಲಲಿತಾ ಮಹಾತ್ರಿಪುರ ಸುಂದರೀ ಪ್ರೀತ್ಯರ್ಥೇ ಶ್ರೀಲಲಿತಾ ತ್ರಿಶತೀ ಸ್ತೋತ್ರ ಜಪೇ ವಿನಿಯೋಗಃ
ಧ್ಯಾನಂ
ಅತಿಮಧುರ ಜಾಪಹಸ್ತ ಅಪರಿಮಿತ ಮೋದಬಾನ ಸೌಭಾಗ್ಯ ಅರುಣಾಮತಿಶಯ ಕರುಣಾ ಅಭಿನವ ಕುಲ ಸುಂದರೀಂ ವಂದೇ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಕಾರ ರೂಪಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಲ್ಯಾಣ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಲ್ಯಾಣ ಗುಣಶಾಲಿನ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಲ್ಯಾಣ ಶೈಲ ನಿಲಯಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಮನೀಯಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಲಾವತ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಮಲಾಕ್ಷ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಲ್ಮಷಗ್ನ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕರುಣಾಮೃತ ಸಾಗರಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕದಂಬಕಾನನಾವಾಸಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕದಂಬಕುಸುಮಪ್ರಿಯಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಗಂಧರ್ಪವಿದ್ಯಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಗಂಧರ್ಪಜನಕಾಪಾಂಗವೀಕ್ಷಣಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕರ್ಪೂರವೀತಿಸೌರಭ್ಯಕಲ್ಲೋಲಿತಕುಕ್ತಟಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಲಿದೋಷಹರಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಂಜಲೋಚನಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಮ್ರವಿಗ್ರಹಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕರ್ಮಾದಿಸಾಕ್ಷಿಣ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕಾರಯಿತ್ರ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಕರ್ಮಫಲಪ್ರದಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಾರರೂಪಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಾಕ್ಷರ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಾನೇಕಾಕ್ಷರಾಕೃತ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏತದ್ಗತಿನಿರ್ದೇಶಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಾನಂದಚಿದಾಕೃತ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏವಮಿತ್ಯಾಗಮಾಬೋಧ್ಯಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಭಕ್ತಿಮದರ್ಚಿತಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಾಗ್ರಚಿತ್ತನಿರ್ಧ್ಯಾತಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಷಣಾರಹಿತಾದೃತಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಲಾಸುಗಂಧಿಚಿಕುರಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏನಃ ಕೂಟವಿನಾಶಿನ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಭೋಗಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕರಸಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕೈಶ್ವರ್ಯಪ್ರದಾಯಿನ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಾತಪತ್ರ ಸಾಮ್ರಾಜ್ಯಪ್ರದಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಾಂತಪೂಜಿತಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಧಮಾನಪ್ರಭಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಜದನೇಜ ಜಗದೀಶ್ವರ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕವೀರಾದಿಸಂಸೇವ್ಯಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಏಕಪ್ರಾಭವಶಾಲಿನ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಕಾರರೂಪಿಣ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಶಿತ್ರ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಪ್ಸಿತಾರ್ಥಪ್ರದಾಯಿನ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈದೃಗಿರ್ಯವಿನಿರ್ದೇಶ್ಯಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಶ್ವರತ್ವವಿಧಾಯಿನ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಶಾನಾದಿಬ್ರಹ್ಮವಯ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಶಿದ್ವಾದ್ಯಷ್ಟಸಿದ್ಧಿತಾಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಕ್ಷಿತ್ಯೈ ನಮಃ ಓಂ ಐಂ ಹ್ರೀಂ ಶ್ರೀಂ ಈಕ್ಷಣಸೃಷ್ಟಾಂಡಕೋಟ್ಯೈ ನಮಃ ॐ ऐं ह्रीं श्रीं ईश्वरवल्लभायै नमः ॐ ऐं ह्रीं श्रीं ईडितायै नमः ॐ ऐं ह्रीं श्रीं ईश्वरार्धाङ्गशरीरायै नमः ॐ ऐं ह्रीं श्रीं ईशाधिदेवतायै नमः ॐ ऐं ह्रीं श्रीं ईश्वरप्रेरणकर्यै नमः ॐ ऐं ह्रीं श्रीं ईशताण्डवसाक्षिण्यै नमः ॐ ऐं ह्रीं श्रीं ईश्वरोत्सङ्गनिलयायै नमः ॐ ऐं ह्रीं श्रीं ईतिबाधाविनाशिन्यै नमः ॐ ऐं ह्रीं श्रीं ईहाविरहितायै नमः ॐ ऐं ह्रीं श्रीं ईशशक्त्यै नमः ॐ ऐं ह्रीं श्रीं ईशस्मिताननायै नमः ॐ ऐं ह्रीं श्रीं लकाररूपायै नमः ॐ ऐं ह्रीं श्रीं ललितायै नमः ॐ ऐं ह्रीं श्रीं लक्ष्मीवाणीनिषेवितायै नमः ॐ ऐं ह्रीं श्रीं लाकिन्यै नमः ॐ ऐं ह्रीं श्रीं ललनारूपायै नमः ॐ ऐं ह्रीं श्रीं लसद्दाडिमपाटलायै नमः ॐ ऐं ह्रीं श्रीं ललन्तिकालसत्फालायै नमः ॐ ऐं ह्रीं श्रीं ललाटनयनार्चितायै नमः ॐ ऐं ह्रीं श्रीं लक्षणोज्ज्वलदिव्याङ्ग्यै नमः ॐ ऐं ह्रीं श्रीं लक्षकोट्यण्डनायिकायै नमः ॐ ऐं ह्रीं श्रीं लक्ष्यार्थायै नमः ॐ ऐं ह्रीं श्रीं लक्षणागम्यायै नमः ॐ ऐं ह्रीं श्रीं लब्धकामायै नमः ॐ ऐं ह्रीं श्रीं ललातनवे नमः ॐ ऐं ह्रीं श्रीं ललामराजदलिकायै नमः ॐ ऐं ह्रीं श्रीं लम्बमुक्तलताञ्छितायै नमः ॐ ऐं ह्रीं श्रीं लम्बोदरप्रसुवे नमः ॐ ऐं ह्रीं श्रीं लभ्यायै नमः ॐ ऐं ह्रीं श्रीं लज्जाढ्यायै नमः ॐ ऐं ह्रीं श्रीं लयवर्जितायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्काररूपायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारनिलयायै नमः ॐ ऐं ह्रीं श्रीं ह्रीम्पदप्रियायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारबीजायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारमन्त्रायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारलक्षणायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारजपसुप्रीतायै नमः ॐ ऐं ह्रीं श्रीं ह्रीमत्यै नमः ॐ ऐं ह्रीं श्रीं ह्रीं विभूषणायै नमः ॐ ऐं ह्रीं श्रीं ह्रीं शीलायै नमः ॐ ऐं ह्रीं श्रीं ह्रीं पदाराध्यायै नमः ॐ ऐं ह्रीं श्रीं ह्रीं गर्भायै नमः ॐ ऐं ह्रीं श्रीं ह्रीं पदाभिधायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारवाच्यायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारपूज्यायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारपीठिकायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारवेद्यायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारचिन्त्यायै नमः ॐ ऐं ह्रीं श्रीं ह्रीं नमः ॐ ऐं ह्रीं श्रीं ह्रीं शरीरिण्यै नमः ॐ ऐं ह्रीं श्रीं अकाररूपायै नमः ॐ ऐं ह्रीं श्रीं हलधृत्पूजितायै नमः ॐ ऐं ह्रीं श्रीं हरिणेक्षणायै नमः ॐ ऐं ह्रीं श्रीं हरप्रियायै नमः ॐ ऐं ह्रीं श्रीं हराराध्यायै नमः ॐ ऐं ह्रीं श्रीं हरिब्रह्मेन्द्रसेवितायै नमः ॐ ऐं ह्रीं श्रीं हयारूढासेविताङ्घ्र्यै नमः ॐ ऐं ह्रीं श्रीं हयमेधसमर्चितायै नमः ॐ ऐं ह्रीं श्रीं हर्यक्षवाहनायै नमः ॐ ऐं ह्रीं श्रीं हंसवाहनायै नमः ॐ ऐं ह्रीं श्रीं हतदानवायै नमः ॐ ऐं ह्रीं श्रीं हत्यादिपापशमन्यै नमः ॐ ऐं ह्रीं श्रीं हरिदश्वादिसेवितायै नमः ॐ ऐं ह्रीं श्रीं हस्तिकुम्भोत्तुङ्गकुचायै नमः ॐ ऐं ह्रीं श्रीं हस्तिकृत्तिप्रियाङ्गनायै नमः ॐ ऐं ह्रीं श्रीं हरिद्राकुङ्कुमदिग्धायै नमः ॐ ऐं ह्रीं श्रीं हर्यश्वाद्यमरार्चितायै नमः ॐ ऐं ह्रीं श्रीं हरिकेशसख्यै नमः ॐ ऐं ह्रीं श्रीं आदिविद्यायै नमः ॐ ऐं ह्रीं श्रीं हालामदालसायै नमः ॐ ऐं ह्रीं श्रीं सकाररूपायै नमः ॐ ऐं ह्रीं श्रीं सर्वज्ञायै नमः ॐ ऐं ह्रीं श्रीं सर्वेश्वर्यै नमः ॐ ऐं ह्रीं श्रीं सर्वमङ्गलायै नमः ॐ ऐं ह्रीं श्रीं सर्वकर्त्र्यै नमः ॐ ऐं ह्रीं श्रीं सर्वभद्र्यै नमः ॐ ऐं ह्रीं श्रीं सर्वहन्त्र्यै नमः ॐ ऐं ह्रीं श्रीं सनातनायै नमः ॐ ऐं ह्रीं श्रीं सर्वाणवद्यायै नमः ॐ ऐं ह्रीं श्रीं सर्वाङ्गसुन्दर्यै नमः ॐ ऐं ह्रीं श्रीं सर्वसाक्षिण्यै नमः ॐ ऐं ह्रीं श्रीं सर्वात्मिकायै नमः ॐ ऐं ह्रीं श्रीं सर्वसौख्यदात्र्यै नमः ॐ ऐं ह्रीं श्रीं सर्वविमोहिन्यै नमः ॐ ऐं ह्रीं श्रीं सर्वाधारायै नमः ॐ ऐं ह्रीं श्रीं सर्वगतायै नमः ॐ ऐं ह्रीं श्रीं सर्वावगुणवर्जितायै नमः ॐ ऐं ह्रीं श्रीं सर्वारुणायै नमः ॐ ऐं ह्रीं श्रीं सर्वमात्रे नमः ॐ ऐं ह्रीं श्रीं सर्वाभरणभूषितायै नमः ॐ ऐं ह्रीं श्रीं ककारार्थायै नमः ॐ ऐं ह्रीं श्रीं कालहन्त्र्यै नमः ॐ ऐं ह्रीं श्रीं कामेश्यै नमः ॐ ऐं ह्रीं श्रीं कामितार्थतायै नमः ॐ ऐं ह्रीं श्रीं कामसञ्जीविन्यै नमः ॐ ऐं ह्रीं श्रीं कल्यायै नमः ॐ ऐं ह्रीं श्रीं कठिनस्तनमण्डलायै नमः ॐ ऐं ह्रीं श्रीं करभोरवे नमः ॐ ऐं ह्रीं श्रीं कलानाथमुख्यै नमः ॐ ऐं ह्रीं श्रीं कचचिदाम्बुदायै नमः ॐ ऐं ह्रीं श्रीं कटाक्षस्यन्धिकरुणायै नमः ॐ ऐं ह्रीं श्रीं कपालिप्राणनायिकायै नमः ॐ ऐं ह्रीं श्रीं कारुण्यविग्रहायै नमः ॐ ऐं ह्रीं श्रीं कान्तायै नमः ॐ ऐं ह्रीं श्रीं कान्तिभूतजवावल्यै नमः ॐ ऐं ह्रीं श्रीं कलालापायै नमः ॐ ऐं ह्रीं श्रीं कम्बुकण्ठ्यै नमः ॐ ऐं ह्रीं श्रीं करनिर्जितपल्लवायै नमः ॐ ऐं ह्रीं श्रीं कल्पवल्लीसमभुजायै नमः ॐ ऐं ह्रीं श्रीं कस्तूरीजलकाञ्चितायै नमः ॐ ऐं ह्रीं श्रीं हकारार्थायै नमः ॐ ऐं ह्रीं श्रीं हंसगत्यै नमः ॐ ऐं ह्रीं श्रीं पाटकाभरणोज्ज्वलायै नमः ॐ ऐं ह्रीं श्रीं हारहारिकुचाभोगायै नमः ॐ ऐं ह्रीं श्रीं हाकिन्यै नमः ॐ ऐं ह्रीं श्रीं हल्यवर्जितायै नमः ॐ ऐं ह्रीं श्रीं हरित्पतिसमाराध्यायै नमः ॐ ऐं ह्रीं श्रीं हठात्कारहतासुरायै नमः ॐ ऐं ह्रीं श्रीं हर्षप्रदायै नमः ॐ ऐं ह्रीं श्रीं हविर्भोक्त्र्यै नमः ॐ ऐं ह्रीं श्रीं आर्दसन्तपसामहायै नमः ॐ ऐं ह्रीं श्रीं हल्लीहालास्य सन्तुष्टायै नमः ॐ ऐं ह्रीं श्रीं हंसमन्त्रार्थरूपिण्यै नमः ॐ ऐं ह्रीं श्रीं आनोपादानिर्मुक्तायै नमः ॐ ऐं ह्रीं श्रीं हरिषिण्यै नमः ॐ ऐं ह्रीं श्रीं हरिसोदर्यै नमः ॐ ऐं ह्रीं श्रीं हाहाहूहूमुखस्तुत्यायै नमः ॐ ऐं ह्रीं श्रीं हानिवृद्धिविवर्जितायै नमः ॐ ऐं ह्रीं श्रीं हय्यङ्गवीनहृदयायै नमः ॐ ऐं ह्रीं श्रीं हरिकोपारुणांशुकायै नमः ॐ ऐं ह्रीं श्रीं लकाराख्यायै नमः ॐ ऐं ह्रीं श्रीं लतापूज्यायै नमः ॐ ऐं ह्रीं श्रीं लयस्थित्युद्भवेश्वर्यै नमः ॐ ऐं ह्रीं श्रीं लास्यदर्शनसन्तुष्टायै नमः ॐ ऐं ह्रीं श्रीं लाभालाभविवर्जितायै नमः ॐ ऐं ह्रीं श्रीं लङ्घेतराज्ञायै नमः ॐ ऐं ह्रीं श्रीं लावण्यशालिन्यै नमः ॐ ऐं ह्रीं श्रीं लघुसिद्धिदायै नमः ॐ ऐं ह्रीं श्रीं लाक्षारससवर्णाभायै नमः ॐ ऐं ह्रीं श्रीं लक्ष्मणाग्रजपूजितायै नमः ॐ ऐं ह्रीं श्रीं लभ्येतरायै नमः ॐ ऐं ह्रीं श्रीं लब्धभक्तिसुलभायै नमः ॐ ऐं ह्रीं श्रीं लाङ्गलायुधायै नमः ॐ ऐं ह्रीं श्रीं लग्नचामरहस्तश्रीशारदापरिवीजितायै नमः ॐ ऐं ह्रीं श्रीं लज्जापदसमाराध्यायै नमः ॐ ऐं ह्रीं श्रीं लम्पटायै नमः ॐ ऐं ह्रीं श्रीं लकुलेश्वर्यै नमः ॐ ह्रीं श्रीं लब्धमानायै नमः ॐ ह्रीं श्रीं लब्धरसायै नमः ॐ ह्रीं श्रीं लब्धसम्पत्समुन्नत्यै नमः ॐ ह्रीं श्रीं ह्रीङ्कारिण्यै नमः ॐ ह्रीं श्रीं ह्रीङ्काराध्यायै नमः ॐ ह्रीं श्रीं ह्रीं मध्यायै नमः ॐ ह्रीं श्रीं ह्रीं शिखामणये नमः ॐ ह्रीं श्रीं ह्रीङ्कारकुण्डाग्निशिखायै नमः ॐ ह्रीं श्रीं ह्रीङ्कारशशिचन्द्रिकायै नमः ॐ ह्रीं श्रीं ह्रीङ्कारभास्कररुच्यै नमः ॐ ह्रीं श्रीं ह्रीङ्काराम्भोदचञ्चलायै नमः ॐ ह्रीं श्रीं ह्रीङ्कारगन्धाङ्गुलिकायै नमः ॐ ह्रीं श्रीं ह्रीङ्कारैकपरायणायै नमः ॐ ह्रीं श्रीं ह्रीङ्कारदीर्घिकाहंस्यै नमः ॐ ह्रीं श्रीं ह्रीङ्कारोद्यानकेतिन्यै नमः ॐ ह्रीं श्रीं ह्रीङ्कारारण्यहरिण्यै नमः ॐ ह्रीं श्रीं ह्रीङ्कारावालवल्लर्यै नमः ॐ ह्रीं श्रीं ह्रीङ्कारपञ्जरशुक्यै नमः ॐ ह्रीं श्रीं ह्रीङ्काराङ्गणदीपिकायै नमः ॐ ह्रीं श्रीं ह्रीङ्कारगन्धरासिंह्यै नमः ॐ ह्रीं श्रीं ह्रीङ्काराम्भोजभृङ्गिकायै नमः ॐ ह्रीं श्रीं ह्रीङ्कारसुमनोमाध्यै नमः ॐ ह्रीं श्रीं ह्रीङ्कारतरुमञ्जर्यै नमः ॐ ह्रीं श्रीं सकाराख्यायै नमः ॐ ह्रीं श्रीं समरसायै नमः ॐ ह्रीं श्रीं सकलागमसंस्तुतायै नमः ॐ ह्रीं श्रीं सर्ववेदान्ततात्पर्यभूम्यै नमः ॐ ह्रीं श्रीं सदसदाश्रयायै नमः ॐ ह्रीं श्रीं सकलायै नमः ॐ ह्रीं श्रीं सच्चिदानन्दायै नमः ॐ ह्रीं श्रीं साध्यै नमः ॐ ह्रीं श्रीं सद्गतिदायिन्यै नमः ॐ ह्रीं श्रीं सनकादिमुनिध्येयायै नमः ॐ ह्रीं श्रीं सदाशिवकुटुम्बिन्यै नमः ॐ ह्रीं श्रीं सकलाधिष्ठानरूपायै नमः ॐ ह्रीं श्रीं सत्त्वरूपायै नमः ॐ ह्रीं श्रीं समाकृत्यै नमः ॐ ह्रीं श्रीं सर्वप्रपञ्चनिर्मात्र्यै नमः ॐ ह्रीं श्रीं समानाधिकवर्जितायै नमः ॐ ह्रीं श्रीं सर्वोत्तुङ्गायै नमः ॐ ह्रीं श्रीं सङ्गहीनायै नमः ॐ ह्रीं श्रीं सगुणायै नमः ॐ ह्रीं श्रीं सकलेष्टदायै नमः ॐ ह्रीं श्रीं ककारिण्यै नमः ॐ ह्रीं श्रीं काव्यलोलायै नमः ॐ ह्रीं श्रीं कामेश्वरमनोहरायै नमः ॐ ह्रीं श्रीं कामेश्वरप्राणनाड्यै नमः ॐ ह्रीं श्रीं कामेशोत्सङ्गवासिन्यै नमः ॐ ह्रीं श्रीं कामेश्वरालिङ्गिताङ्ग्यै नमः ॐ ह्रीं श्रीं कामेश्वरसुखप्रदायै नमः ॐ ह्रीं श्रीं कामेश्वरप्रणयिन्यै नमः ॐ ह्रीं श्रीं कामेश्वरविलासिन्यै नमः ॐ ह्रीं श्रीं कामेश्वरतपस्विद्यै नमः ॐ ह्रीं श्रीं कामेश्वरमनःप्रियायै नमः ॐ ह्रीं श्रीं कामेश्वरप्राणनाथायै नमः ॐ ह्रीं श्रीं कामेश्वरविमोहिन्यै नमः ॐ ह्रीं श्रीं कामेश्वरब्रह्मविद्यायै नमः ॐ ह्रीं श्रीं कामेश्वरगृहेश्वर्यै नमः ॐ ह्रीं श्रीं कामेश्वराह्लादकर्यै नमः ॐ ह्रीं श्रीं कामेश्वरमहेश्वर्यै नमः ॐ ह्रीं श्रीं कामेश्वर्यै नमः ॐ ह्रीं श्रीं कामकोटिनिलयायै नमः ॐ ह्रीं श्रीं काङ्क्षितार्थतायै नमः ॐ ह्रीं श्रीं लकारिण्यै नमः ॐ ह्रीं श्रीं लब्धरूपायै नमः ॐ ह्रीं श्रीं लब्धधिये नमः ॐ ह्रीं श्रीं लब्धवाञ्छितायै नमः ॐ ह्रीं श्रीं लब्धपापमनोदूरायै नमः ॐ ह्रीं श्रीं लब्धाहङ्कारदुर्गमायै नमः ॐ ऐं ह्रीं श्रीं लब्धशक्त्यै नमः ॐ ऐं ह्रीं श्रीं लब्धदेहायै नमः ॐ ऐं ह्रीं श्रीं लब्धैश्वर्यसमुन्नत्यै नमः ॐ ऐं ह्रीं श्रीं लब्धबुद्धयै नमः ॐ ऐं ह्रीं श्रीं लब्धलीलायै नमः ॐ ऐं ह्रीं श्रीं लब्धयौवनशालिन्यै नमः ॐ ऐं ह्रीं श्रीं लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः ॐ ऐं ह्रीं श्रीं लब्धविभ्रमायै नमः ॐ ऐं ह्रीं श्रीं लब्धरागायै नमः ॐ ऐं ह्रीं श्रीं लब्धगत्यै नमः ॐ ऐं ह्रीं श्रीं लब्धनानागमस्थित्यै नमः ॐ ऐं ह्रीं श्रीं लब्धभोगायै नमः ॐ ऐं ह्रीं श्रीं लब्धसुखायै नमः ॐ ऐं ह्रीं श्रीं लब्धहर्षाभिपूजितायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारमूर्त्यै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारसौधशृङ्गकपोतिकायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारदुग्धाभ्युसुधायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारकमलेन्दिरायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारमणिदीपार्चिषे नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारतरुशारिकायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारपेटकमणये नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारदर्शबिम्बिकायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारकोशाशिलतायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारास्थाननर्तक्यै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारशुक्तिकामुक्तामणये नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारबोधितायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारवेदोपनिषदायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्काराध्वरदक्षिणायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारनन्दनारामणवकल्पकवल्लर्यै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारहिमवद्गङ्गायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारार्णवकौस्तुभायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारमन्त्रसर्वस्वायै नमः ॐ ऐं ह्रीं श्रीं ह्रीङ्कारपरसौख्यदायै नमः ॐ ऐं ह्रीं श्रीं श्रीमद्राजराजेश्वर्यै नमः।